सर्वेभ्यो नमः, सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे. अस्माकं प्रवर्तमानविषयः अस्ति तत्र कालस्य उपादयः अपि कालस्य सर्वाधारत्वम् इति. तस्मिन् विषये वयं गतवर्गे सर्वं प्रायशः पठितवन्तः. केचन अंशाः सन्ति, तेषां किञ्चित् चर्चां कृत्वा अग्रे गन्तुं शक्नुमः इति मन्ये. अतः तत्र तत्र भूमिकारूपेण किञ्चित् वदामि तत्र किं वयं कृतवन्तः इत्युक्ते, नाम तत्र कालस्य सर्वाधारत्वं, नाम तत्र यदा वयं वदामः तत्र इदानीं घटः अस्ति इति यदि वदामः, तत्र किं सूचितं भवति तत्र पद्मा भगिनी? इदानीं घटः इति यदि वदामः तत्र किं सूचितं भवति तस्मिन् ज्ञाने? इदानीं घटः इति, इदानीं घटः इति यदि कोऽपि वदति, नाम तत्र इदानीं घटः इति, तत्र घटः किम् अस्ति, अस्मिन् क्षणे अस्ति इति भवति खलु? तर्हि तत्र अधिकरणता सूचितम् अस्ति, सूचिता अस्ति, तत्र कस्य अधिकरणता सूचिता अस्ति? न न, इदानीं केवलम् इदानीं घटः अस्ति इति एव अस्ति. नाम घटः भूतले अस्ति इति वदामश्चेत् अधिकरणतः भूतले अस्ति, किन्तु किन्तु केवलम् इदानीं घटः, तदा तत्र इदानीं घटः इत्युक्ते समीचीनम्, इदानीं घटः समीचीनं, नाम इदानीं घटः इति यदि वदामः तत्र अस्मिन् क्षणे, तर्हि तत्र सप्तमी अस्ति कालस्य, क्षणे इति कालसूचकपदस्य, अतः अधिकरणता काले अस्ति. अतः तत्र तादृशं चिन्तनेन वयं जानीमः तत्र सर्वे पदार्थाः काले सन्ति, नाम कालस्य सर्वाधारत्वम् अस्ति. तत्र इदानीम् आकाशः इति यदि वदामः तत्र आकाशः अस्मिन् क्षणे अस्ति, अतः तत्र आकाशः पुनः तत्र आदेयः, अधिकरणं किं भवति?
कालः,
कालः इति भवति. अतः तत्र विभुद्रव्य द्रव्यं वा अथवा
तत्र कालः एव आधारः
इति आपतति, इति आगच्छति. अतः तत्र कालः सर्वेषां पदार्थानां, तत्र मूर्तद्रव्यं वा विभुद्रव्यं वा किमपि भवतु, तत्र सर्वपदार्थानां कालः एव तत्र आधारः इति तत्र भवति. इति प्रथमबिन्दुः. इदानीं तदनन्तरं वयं किं कृतवन्तः, तत्र उपादयः इति वयं चिन्तितवन्तः. तत्र उपादयः नाम किम् इति तत्र तत्र
येन कालः क्रियते, तदेव
उदाहरणार्थम्
एकः गृहः पद्मालयः इति अस्ति चेत् तत्र कालपरिमितिः 1900
तः 1900 गृहस्य निर्माणं जातं, ततः आरभ्य एकः कालस्य विभागः, एकः भागः, तस्मात् प्राक् अन्यः भागः इति कृत्वा तत्र कालस्य तत्र सङ्कुचितं जातं खलु, सङ्कुचितं रूपं प्राप्तमस्ति, नाम तत्र भागः. अतः तत्र उपाधिः, समीचीनं भगिनि. अतः तत्र इदानीं तत्र वयं किं तत्र पठितवन्तः, तत्र उपाधि अपि तत्र अधिकरणं भवति. यदि तत्र शिवालयः अपि पद्मालयः तत्र एकस्मिन् समये स्तः चेत् तत्र किं भवति, तत्र
समानकाले वर्तमानाः
सन्ति चेत्
तत्र परस्परम् अधिकरणत्वं भवति.
नाम तत्र पद्मालयः शिवालयः एकस्मिन् तत्र एकवर्ष यावत् तत्र तेषां तत्र अस्तित्वं, तयोः अस्तित्वम् अस्ति इति चिन्तयामश्चेत् अतः तत्र समकालीनौ पद्मालयौ शिवालयौ भवतः इति कृत्वा तथा तत्र वयं किं वदामः तत्र पद्मालयः शिवालये अस्ति, शिवालयः पद्मालये अस्ति. अत्र मूलविषयः अस्ति तत्र केन सम्बन्धेन, तत्र उत्तरं किम्?
कालिकसम्बन्धेन
इति भवति. समीचीनं भगिनि, धन्यवादः भगिनि पद्मा भगिनि. अस्तु इदानीम् अन्य कोऽपि तत्र अस्तु, तत्र राजी भगिनी तत्र पद्मालय शिवालयः तत्र परस्पर तत्र अधिकरणम् अपि आदेयः भवितुम् अर्हन्ति यतोहि समानकालीनौ स्तः. इदानीं तत्र यदि तत्र आकाशः अस्ति, आकाशः अथ तत्र पद्मालयः तत्र उपाधिः अस्ति, उपाधिः अपि तत्र अधिकरणं भवितुम् अर्हति. इदानीं तत्र पद्मालयः अस्ति, किं पद्मालयः अपि तत्र अधिकरणम् अस्ति वा आकाशस्य?
आं जि, किमर्थम् इत्युक्ते पद्मालयः सूर्यस्य भ्रमणक्रियाम् अनुभवति. सो अतः काले तद् सः अन्तर्भूतः भवति इति कारणात् सः अपि अधिकार तदपि अधिकरणं भवितुम् अर्हति.
समीचीनं, नाम तत्र गृहं तत्र पद्मालयः तत्र गृहम् अस्ति, तस्य निर्माणं तत्र कस्य उपाधित्वं भवति तत्र, नित्यपदार्थानाम् अथवा अनित्यपदार्थानां वा?
द्वयमपि जि, नित्यपदार्थानाम् अनित्यपदार्थानां च उपाधिः अनित्यपदार्थानामेव भवितुम् अर्हति,
अनित्यपदार्थानां
भवितुम् न अर्हति.
न अर्हति, समीचीनम्. तत्र आकाशः कालस्य उपाधिः न भवति,
न भवति, आकाशः आत्मा न भवति, उपाधिः न अर्हति.
समीचीनं भगिनि, किन्तु तत्र पद्मालयः उपाधिः भवितुम्
उपाधिः पद्मालयः कालस्य सङ्कोचं करोति, इत्यनेन
सङ्कोचं करोति. समीचीनं भगिनि, इदानीं तत्र इदानीम् उपाधि अपि तत्र अधिकरणं भवितुम् अर्हति समकालीनौ पदार्थौ स्तः चेत् तत्र उपाधिरूपेण उपाधि अपि अधिकरणं भवति इति पठितवन्तः. तर्हि किं तत्र आकाशः अपि पद्मालयः तत्र तत्र पद्मालयः तत्र आकाशस्य अधिकरणं भवितुम् अर्हति वा?
कथञ्चेत् गृहस्य निर्माणम् एकस्मिन् काले भवति, तस्मिन् काले कालस्य सङ्कोचः भवति, गृहात् गृहस्य निर्माणपूर्वं तदनन्तरम् इति एकः विभागः कृतः, अतः गृहे उपाधिः भवति. तदनन्तरं सः अपि कालिकसम्बन्धेन काले एव, मीन्स् आकाशे एव भवति.
आकाशे तत् तर्हि अधिकरणतः कुत्र अस्ति, गृहे वा आकाशे वा?
गृहे एव अस्ति, समानकाले एव आकाशमपि अस्ति, गृहमपि अस्ति इति कारणात्.
समीचीनं, यस्मिन् काले तत्र पद्मालयः अस्ति तस्मिन्नेव काले आकाशः. नित्यद्रव्यम् इति यदस्ति अथवा नित्यपदार्थः यः अस्ति तस्य तु तत्र किं तत्र इदानीं जातम् इति वक्तुं शक्नुमः वा?
वक्तुं न
शक्नुमः. तत्र आकाशः तु सर्वदा अस्ति, नित्यपदार्थः अस्ति. अतः तत्र यदा तत्र पद्मालयस्य निर्माणं जातं तदापि आकाशः अस्ति, तदनन्तरमपि आकाशः अस्ति, अतः तत्र पद्मालयः अपि आकाशः समकालीनौ इति वक्तुं शक्नुमः, खलु?
सत्यं.
यतोहि तत्र तयोः मध्ये तत्र तत्र किम् आसीत् तत्र समकालीनौ इत्युक्ते तत्र किम् आसीत् तत्र वयं तत्र ताभ्याम् अभिन्ना एका काचन क्रिया सहानुभोक्तव्या इति आसीत् खलु, ताभ्यां. तत्तु अस्ति, यतोहि तत्र सूर्य तत्र भ्रमणक्रिया तु तत् क्रिया तु अस्ति, सा क्रिया ताभ्यां तत्र अनुभोक्तव्या सः अनुभोक्तव्या अस्ति. अतः तत्र आकाशः अपि तत्र पद्मालयः तत्र वयं तत्र समकालीनौ इति वक्तुं शक्नुमः. किन्तु एकः एव तत्र अधिकरणरूपेण स्वीकर्तुं शक्नुमः कालिकसम्बन्धेन. आकाशः वा पद्मालयः वा तत्र
पद्मालयः एव,
पद्मालयः एव तत्र अधिकरणरूपेण स्वीकर्तुं शक्नुमः. अतः तत्र वयं किं वक्तुं शक्नुमः, आकाशः कालिकसम्बन्धेन पद्मालये अस्ति. हा, यतोहि तत्र उपाधिः इत्युक्ते महाकालस्य प्रतिनिधिः भवति तत्र. अत्र कालस्य प्रतिनिधिः अस्ति, अतः तत्र यद्यत् कालेन भवति तत् सर्वं तत्र प्रतिनिधिः यः अस्ति तेन अपि सः भवति. अतः तत्र आकाशः महाकाले कालिकसम्बन्धेन अस्ति, तथैव आकाशः प्रतिनिधिः यः अस्ति तस्मिन् अपि कालिकसम्बन्धेन अस्ति. अत्र पद्मालये कालिकसम्बन्धेन आकाशः अस्ति इति वक्तुं प्रीति भवति. किन्तु पद्मालयः आकाशे अस्ति इति वक्तुं शक्नुमः, किन्तु कालिकसम्बन्धेन इति न वक्तुं शक्नुमः. तत्र नाम तत्र कालिकसम्बन्धेन आकाशः तत्र अधिकरणं न भवति, तादृश अधिकरणता आकाशे नास्ति इति अपि वयं
किञ्चित् स्पष्टता आवश्यकता अस्ति जि. कथं तद् अन्तिमवाक्यं भवान् किम् उक्तवान्?
नाम तत्र आकाशः कालिकसम्बन्धेन तत्र आकाशः नाम तत्र वयं पद्मालयः आकाशे कालिकसम्बन्धेन अस्ति इति न वक्तुं शक्नुमः.
ओ अस्तु, आकाशः आधारः भवितुं न अर्हति इति अर्थः.
न अर्हति खलु, यतोहि आकाशः कालस्य प्रतिनिधिः नास्ति. हा, केवलं यः पदार्थः तत्र कालस्य प्रतिनिधिरूपेण स्वीकर्तुं शक्नुमः, केवलं सः पदार्थः, सः उपाधिः एव तत्र कालिकसम्बन्धस्य अधिकरणम् इति भवितुम् अर्हति. अतः तत्र इति अस्ति. अस्ति, धन्यवादः भगिनि. अस्तु, अतः तत्र हा समीचीनम् अस्ति. अतः तत्र इदानीं तत्र अन्तिम तत्र तत्र निकषाः तत्र चत्वारः निकषाः ये सन्ति तान् पठामः, तत्र सर्वे अवगच्छन्ति चेत् अग्रे गन्तुं शक्नुमः. धनश्री भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी, एकनिमिषः भवत्याः प्रश्नः अस्ति इति जानामि, एकनिमिषः. किन्तु तत्र चन्द्रमती भगिनी नमस्कारः, प्रेमदत्त
नमस्कारः,
नमस्कारः नरसिंह महोदय, नमस्कारः.
नमस्कारः महोदय.
नमस्कारः महोदय. मृणालिनी भगिनी नमस्कारः. नमस्कारः भगिनी. विमला भगिनी नमस्कारः.
नमस्ते
भवान्.
उषा भगिनी नमस्कारः.
नमस्ते महोदय.
नमस्कारः भगिनी. अस्तु, हा इदानीं तत्र धनश्री भगिनी प्रश्नः.
न महोदय, वयं यद् वदामः उपाधिना परिच्छिन्नः महाकालः अस्ति, अत्र पद्मालय इति आकाशस्य अधिकरणम् अस्ति, अत्र विवक्षा का अस्ति, नाम पद्मालये इति साक्षात् वास्तु आकाशस्य अधिकरणमस्ति वा पद्मालयस्य यः कालः अस्ति तत् कालः नाम यावत् कालं पद्मालयं तत्र आसीत् अस्ति तत् कालः आकाशस्य अधिकरणमस्ति, किम् अत्र विवक्षा?
विवक्षा नाम तत्र यः प्रतिनिधिः
साक्षात् वास्तु, न न साक्षात् वास्तु इति वयं वक्तुम् इच्छामहे वा तत्र तस्य कालः एव अध्यारूतः अस्ति?
हा, तत्र कालस्य प्रतिनिधिरूपेण तत्र कालिकसम्बन्धेन एकः अन्यस्मिन् अस्ति इति तस्य तात्पर्यं केवलम् अस्ति समकालीनौ इति एव,
नाम तस्य कालेव अत्र वयं वक्तुम् इच्छामः.
हा हा, तत्र द्वयोः अपि काले स्तः
वास्तु न नाम तद् वस्तु अस्ति अथवा वास्तु अस्ति तस्य अत्र उल्लेखः न करणीयः, पद्मालयस्य कालः इति एव अत्र विवक्षितः अर्थः अस्ति.
विवक्षितः अर्थः न तत्र पद्मालयस्य कालः इति अपि
यद् कन्स्ट्रक्षन् अस्ति तस्य विषये वयं न वदामः
न तत्र तेन किं जातं तत्र तया क्रियया निर्माणक्रियया तत्र निर्माणक्रिया अस्ति तया तत्र तदनन्तरं तत्र निर्माणं जातं नाम तत्र जन्म अभवत् इति कृत्वा तत आरभ्य तत्र
कालस्य विभाग तावत्
वस्तुविषये नाम तत्र केवलं तत्र अस्तु इदानीं चिन्तयतु तत्र केवलं तत्र एकः अन्यस्मिन् अस्ति
तद्वस्तु अपि कालिकसम्बन्धेन तस्मिन् काले तस्मिन् कालविभागे भवेत् किल
सत्यं
अतः कालस्य एव विषय वर्णनं
सत्यं सत्यं तत्र नाम तत्र तस्मिन् काल तत्र कालस्य भागः यः अस्ति तस्मिन् एकस्मिन् भागे एव तत्र द्वय पदार्थद्वयमपि अस्ति इति चिन्तनम् इति सत्यं भगिनि अतः एव तत्र समकालीन अस्तु विमला भगिनी
प्रश्नः अस्ति महोदय यदुक्तं भवता आकाशः अधिकरणं नास्ति इति परन्तु यत्र
अधिकरणं केवलं तत्र कालिकसम्बन्धस्य कालिकसम्बन्धेन अधिकरणं नास्ति इति
अस्तु
नाम तत्र अन्यरीत्या अधिकरणं भवितुम् अर्हति नाम तत्र तत्र नाम तत्र तत्र अस्तु तत्र रूपं महाकाले अस्ति किन्तु रूपं तत्र समवायसम्बन्धेन महाकाले नास्ति यतोहि रूपं गुणम् अस्ति तर्हि तत्र तस्य अधिकरणं तत्र समवायसम्बन्धेन केवलं द्रव्ये एव भवेत् किन्तु तत्र कालः तादृशद्रव्यं नास्ति यत्र रूपम् इति भवितुम् अतः तत्र सर्वे पदार्थाः तत्र केवलं तत्र महाकालसम्बन्धेन कालिकसम्बन्धेन महाकाले सन्ति इति अतः तथैव तत्र आकाशः अन्यस्मिन् प्रसङ्गे अधिकरणं भवितुम् अर्हति तदपि अस्ति किन्तु केवलं तत्र कालिकसम्बन्धेन अधिकरणं न भवितुम् अर्हति यतोहि तादृश अधिकरणत्वं केवलं केषु अस्ति इत्युक्ते तत्र यः अथवा कस्मिन् अस्ति इत्युक्ते तत्र यः कालस्य प्रतिनिधिः भवितुम् अर्हति अतः तत्र कालस्य प्रतिनिधिः कः इत्युक्ते एतदेव तत्र येषु निकषेषु दत्तमस्ति भगिनि अतः तत्र एकवारं निकषान् पठामः
अस्तु महोदय यतोहि यदा गृहमस्ति तत् शून्यतायां तु नास्ति किल रिक्तस्थले नास्ति तत् आकाशे एव अस्ति तेन कारणेन गृहस्य अधिकरणम् आकाश भवतु अर्हति किल तदेव अहं वक्तुमिच्छामि
सत्यं किन्तु वयं किं वदामः तत्र कालिक तत्र सम्बन्धः भवेत् यदि वयं वदामः तत्र एकः पदार्थः अन्यस्मिन् अस्ति इति यदि वदामः सर्वदा किम् अस्ति तत्र केन सम्बन्धेन इति प्रश्नः उदेति खलु अतः तत्र गृहम् अथवा पद्मालयः आकाशे अस्ति इति यदि वदामः अस्तु तद् भवति किन्तु तत्र सम्बन्धः कालिकसम्बन्धः नास्ति इति एव
तावदेव अस्तु महोदय धन्यवादः
अन्ये तत्र अन्येन सम्बन्धेन भवेत् किन्तु कालिकसम्बन्धेन न भवति
अस्तु महोदय धन्यवादः
अस्तु समीचीनम् अस्तु तर्हि तत्र अग्रे सरामः तर्हि तत्र इदानीं तत्र निकषान् पठामः तत्र तेन तत्र पठनेन तत्र सर्वं स्पष्टं भवति इति मन्ये तर्हि तत्र शोभभगिनी आरम्भ प्रथमं पठित्वा किञ्चित् वदति वा भगिनि?
हां महोदय, तत्र उपाधिना परिच्छिन्ना इति वा? हा अस्तु. उपाधिना परिच्छिन्नः महाकालः जन्यानां नित्यानां च कालिकेन आधारः. हा तत्र यथा तत्र गृहस्य गृहाणि उपादयः भवन्ति इति दृष्टवन्तः. यतोहि तत्र उदाहरणार्थं गृहस्य जन्म भवति यदा तस्य कस्मिन्नपि काले आरम्भः भवति, तस्मात् पूर्वस्य कालस्य विच्छेदनं भवति, तत्र अवच्छेदनं भवति अथवा परिच्छिन्नः भवति इति कृत्वा तत्र जन्म इति वक्तुं शक्नुमः. तदनन्तरं किमपि अन्यत् गृहस्य जन्म भवति चेत् अस्मिन् रीत्या तत्र कालस्य गृहाणि कालस्य सङ्कोचकाः भवन्ति. अतः तत्र उपाधयः भवन्ति गृहाणि. उदाहरणार्थं
समीचीनं उत्तममस्ति. नाम तत्र एकस्य गृहस्य निर्माणं जातम् इति अस्ति चेत् तस्मात्
पूर्वम् अथवा परं
परम् अन्यस्य गृहं भवति इति चेत् वयं प्रथमगृहं स्वीकृत्य अस्तु एतत् अनन्तरं जातम्, एतद् गृहम् अनन्तरं निर्मितम् इति वक्तुं शक्नुमः. तत्र कालस्य बोधः भवति खलु?
बोधः भवति
भवति. अतः तदा कालस्य सङ्कोचनमपि भवति इति कृत्वा प्रथमगृहं वयं कालस्य प्रतिनिधिरूपेण स्वीकर्तुं
स्वीकुर्मः.
अतः उपाधिः इति वदामः. समीचीनं भगिनि.
अतः उपाधिः, यतोहि महाकालस्य परिच्छिन्नः भवति इति कृत्वा उपाधिः इति स्वीकुर्मः. अपि च उपाधिः यत्किमपि भवति तस्य अधिकरणत्वमपि भवति.
किन्तु
अस्मिन् वाक्येन क्षम्यतां, उपाधिनः परिच्छिन्नः महाकालः इति यत् तत्र दत्तमस्ति इत्युक्ते तस्य विवरणम् अस्ति. यथा कालं सङ्कोचनं कृत्वा तिष्ठति इति कृत्वा तस्य उपाधित्वं भवति तत्र. अपि च महाकालस्य परिच्छिन्नत्वं भवति तत्र.
समीचीनं.
अग्रे जन्यानां नित्यानां च कालिकेन आधारः. तत्र जन्यानाम् इत्युक्ते गृहाणि अथवा किमपि वस्तु यत् कालस्य परिच्छिन्नत्वं कृत्वा तिष्ठति उपाधिः भूत्वा, ते सर्वे जन्यवस्तु इत्युक्ते उत्पत्तिः अस्ति तेषाम्, अपि च नाशः अपि अस्ति. तयोः मध्ये कालस्य सङ्कोचनं भवति तस्य कृते, तस्य उपाधेः कृते. अतः तत्र जन्यानां कालिकेन आधारत्वं भवति, कालिकेन आधारः इति उक्तं तत्र. नित्यानां च कालिकेन आधारः इत्युक्ते नित्य इति तत्र आकाशः इति स्वीकुर्मः चेत् इत्युक्ते यस्य उत्पत्तिः नास्ति नाशः नास्ति इति कृत्वा नित्यपदार्थः इति उच्यन्ते ते. तेषां नित्यानां च कालिकेन आधारः इत्युक्ते तत्र यथा यदि तत्र गृहम् अस्ति तस्मिन् आकाशः इति स्वीकुर्मः चेत् आकाशः गृहम् अधिकरणम् इति स्वीकृत्य गृहे
अस्तु अस्तु. तत्र प्रथमबिन्दुः अत्र अस्ति खलु भगिनि? अत्र तत्र एषः भागः, तत्र भवत्या उक्तं तत्र महाकालः उपाधिना परिच्छिन्नः खलु?
आमामां.
हा नाम उपाधिः किं करोति? महाकालस्य विभागं
सङ्कोचनं विभागं करोति
इति समीचीनम्. अतः तत्र महाकालः उपाधिना परिच्छिन्नः अस्ति खलु परिच्छिन्नः कः महाकालः एव
महाकालेन
उपाधिना उपाधिना परिच्छिन्नः अस्ति महाकालः एषः महाकालः कीदृशः अस्ति इति अन्ते दत्तमस्ति एषः एव
आधारः
नाम महाकालः आधारः अस्ति
महाकालः आधारः सर्वेषाम् आधारः इति सर्वेषाम् आधारः भवति
कः महाकालः महाकालः आधारः
जन्यानां कालिकेन आधारः
जन्यानामपि आधारः अस्ति
नित्यानां
कालिकसम्बन्धेन अपि नित्यानामपि आधारः अस्ति महाकालः कालिकसम्बन्धेन तत्र एतद् नाम यत् उपाधि इति आदौ यत् स्थापितं तेन भ्रमः जायते तावदेव अतः तत्र उपाधि इति अस्ति तत्र केवलं तत्र विवरणार्थं तत्र कीदृशः महाकालः अपि उपाधिः नाम किं किन्तु महाकालः साक्षात् आधारः इति एव खलु अत्र
किञ्चित् सन्देहः अस्ति इदानीमपि महोदय तत्र
नाम तत्र एतत् एतत् त्यजतु भगिनि नाम तत्र एतद् अस्तु तत्र
यतोहि तत्र नित्यानां ते तु तेषां सङ्कोचनं न भवति कालस्य महाकालस्य इति कृत्वा तत्र जन्यानां कालिकेन आधारः भवति अपि च नित्यानां च कालिकेन आधारः
इति एव पठतु भगिनि तत्र इति एव पठतु
अस्तु अस्तु महाकालः आधारः इति वा अस्तु महाकालः सर्वेषाम् आधारः
नित्यानाम् आधारः जन्यानामपि
आधारः
आधारः खलु
हा तद् हा सत्यं महोदय पूर्वस्मिन् वर्गे दृष्टवन्तः
एतदेव अस्ति महाकालः आधारः अस्ति जन्यानाम् आधारः यस्य जन्म
नित्यानामपि
नित्यानामपि आधारः अस्ति अतः तत्र आकाशः महाकाले अस्ति केन सम्बन्धेन
आकाशः महाकाले कालिकेन सम्बन्धः इति वक्तव्यं भवति
कालिकसम्बन्धेन अस्ति तत्र केवलं कालिकसम्बन्धः सम्बन्धस्य नाम स्वीकृत्य कालिकेन अस्ति इति वदामः तावत् नाम तत्र समवायेन अस्ति समवायेन तत्र रूपम् अथवा गन्धः पृथिव्यां समवायेन अस्ति इति नाम समवायसम्बन्धेन इति अनुक्त्वा केवलं तत्र लघुरीत्या समवायेन अस्ति तथैव कालिकेन अस्ति इति तावदेव
तदेव मम कृते यतोहि जन्यानां कृते अपि कालिकेन अस्ति अपि च नित्यानां कृते अपि अस्ति
तत्र जन्यानाम् अधिकरणम् इति तत्र उपाधि इति विषयः नास्ति अत्र
तत्र नित्यानां विषये नास्ति
अस्तु तर्हि तत्र महाकालः आधारः अस्ति जन्यानाम् आधारः नित्यानामपि आधारः
आधारः अस्ति
अतः तत्र महाकालस्य सर्वाधारत्वम् अत्र प्रतिपादितम् अस्ति
अस्तु
सम्बन्धः अत्र सर्वदा अस्ति कालिकसम्बन्धः अतः तत्र गृहं महाकाले कालिकसम्बन्धेन अस्ति आकाशः महाकाले कालिकसम्बन्धेन अस्ति
इत्युक्ते तत्र द्वे अपि कालिकसम्बन्धेन एव किन्तु गृहस्य विषये तत्र सङ्कोचनं भवति उपाधित्वं भवति किन्तु तत्र
उपाधिः इति विषयः नास्ति एतावत् केवलं तत्र यत्किमपि वस्तु भवेत् नित्यवस्तु वा अथवा अनित्यं यत्किमपि भवतु तस्य आधारः महाकालः महाकाल तत्र सम्बन्धः अस्ति कालिकसम्बन्धः तदनन्तरं यदि एतत् भवति तदा तत् केवलं विवरणार्थं तत्र महाकालस्य विशेषणं नाम कीदृशः महाकालः उपाधिना परिच्छिन्नः महाकालः नाम उपाधिना इति केवलं तत्र एतावदेव तस्य अन्वयः अस्ति तदनन्तरं तस्य अन्वयः नास्ति उपाधिन किम् उपाधिन
महाकालः परिच्छिन्नः भवति
परिच्छिन्नः तावदेव तदनन्तरम् उपाधिः इति तस्य महत्त्वं नास्ति
अस्तु महोदय
समीचीनं खलु भगिनि
आं महोदय धन्यवादः
हा हा धन्यवादः भगिनि अस्तु अग्रे तत्र अग्रे उषा भगिनी किञ्चित् अग्रिमं पठति वा
आं महोदय जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानाम् एव जन्यानां कालिकेन अधिकरणानि अत्र मुख्य जन्याः अधिकरणानि भवन्ति जन्याः सो कालिकसम्बन्धेन अधिकरणत्वं भवति इति अस्ति काले अधिकरणत्वम् अस्ति उपाधिः यः अस्ति सः अपि अधिकरणं भवति कालिकसम्बन्धेन इति तत् वाक्यं
वदति
समानकाले समानकाले अस्तित्वम् अस्ति अस्ति ते अपि अधिकरणत्वं भवति समानकाले द्वयोः गृहयोः अस्ति चेत्
एकगृहम् अन्यस्य
एकगृहम् अन्यस्य गृहस्य कालिकेन अधिकरणं भवति
भवति समीचीनं हा तर्हि तत्र जन्यः उपाधिः कः भवितुम् अर्हति नित्य नित्य अथवा अनित्य
अनित्यः एव उपाधिः इति भवितुम् अर्हति
हा यतोहि तेनैव तत्र कालस्य सङ्कोचनं भवति
भवति
तत्र जन्याः इति एव तत्र उपाधि उपाधि नाम जन्याः तत्र जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानामेव जन्यानां कालिकेन अधिकरणानि नाम तत्र
तुल्यक्रियापरिच्छेदकानाम् इति समानकालक्रिया अनुभूयते
हा नाम तत्र यत् वाक्यं वयं पूर्वं पठितवन्तः नाम तत्र एतद् वाक्यं तत्र ताभ्याम् अभिन्ना एका काचन क्रिया सहानुभोक्तव्या तादृशमस्ति चेत् नाम तुल्यक्रिया एका एव क्रिया प्रथम नाम गृहेणापि अनुभोक्तव्या द्वितीयगृहं यदस्ति तेनापि अनुभोक्तव्या अस्ति चेत् तुल्यक्रिया भवति तादृशतुल्यक्रिया अस्ति चेत् तादृशपरिच्छेदकानां तत्र जन्यानां तत्र निखिलानाम् एव जन्यानां तत्र तुल्यक्रिया परिच्छेदकानां निखिलानाम् एव जन्यानां यत्किमपि जन्या
सर्वेषां जन्यानां
हा किन्तु समानकालीनजन्यानां पदार्थानां कालिकेन अधिकरणानि भवति अत्र तत्र पद्मालयः शिवालयः समकालीनौ स्तः चेत् पद्मालयः शिवालये कालिकसम्बन्धेन अस्ति अधिकरणं भवति इति समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे तत्र धन्यवादः भगिनि अस्तु अग्रे तत्र धनश्री भगिनी इदानीं तत्र तृतीयबिन्दुः
आं महोदय नित्यानां तु सुतरां नित्यानां तु सुतरां सुतराम् इत्युक्ते किं
निश्चयेन
अस्तु
सर्वदा तु तत्र सन्देहः नास्ति अतः तत्र नित्यानां तु सुतराम् इति
नित्यपदार्थानां कालः नित्यपदार्थाः कालिकसम्बन्धेन काले तिष्ठति इति
तत्तु प्रथमवाक्यमासीत् इदानीं तत्र वाक्य अन्यत् वाक्यमपि अस्ति खलु भगिनि इदानीं मध्ये
परन्तु
नाम तत्र इदानीं तत्र अन्वयः कुत्र अस्ति इत्युक्ते तत्र
अन्वयः अत्र जन्याः
हा इति हा नाम एतावत् जन्याः जन्यानां तत्र तुल्यक्रिया इत्यादि जन्यानां कालिकेन अधिकरणानि भवन्ति जन्यानाम् अधिकरणानि जन्याः भवन्ति इदानीं
नित्यानामपि अधिकरणत्वेन
अधिकरणानि भवन्ति जन्याः नाम जन्याः यत्र यथा तत्र पद्मालयः अस्ति पद्मालयः अपि तस्मिन्नेव समये शिवालयः अस्ति चेत् शिवालयः पद्मालये कालिकसम्बन्धेन अस्ति इति वक्तुं शक्नुमः. तत्र जन्य शिवालयः जन्यवस्तु जन्यपदार्थः. इदानीम् आकाशः अस्ति चेत्
किं वक्तुं शक्नुमः
अस्ति अतः तत्र
नित्यपदार्थः
हा आकाशः नित्यपदार्थः अस्ति. नित्यानामपि अधिकरणानि भवन्ति जन्याः. किमर्थं यतोहि नित्यपदार्थः सर्वदा अस्ति यदा महापद्मालयः अतः समानकालीनौ इति वक्तुं शक्नुमः. यतोहि तत्र तत्र यावत्पर्यन्तम् एकः पदार्थः अस्ति तावत्पर्यन्तम् अन्यः पदार्थः अस्ति इति नियमः नास्ति. केवलं तयोः मध्ये एका क्रिया सः तुल्यभागः भवेत् खलु. अतः तत्र नित्यानां तु सर्वदा अस्तित्वम् अस्ति. अतः तत्र या कोऽपि क्रिया पद्मालयेन अनुभविता सा तु आकाशेन अपि तत्र अनुभविता. अतः तत्र नित्यानामपि जन्याः अधिकरणानि भवन्ति कालिकसम्बन्धेन इति. समीचीनं वा भगिनि? अस्तु अग्रे इदानीं तत्र अशोकमहोदय अन्तिमभागः अन्तिमनिकषः.
अस्तु महोदय. तथाविधपरिच्छेदयोग्यत्व अभावात् महाकाल अतिरिक्त नित्याः कालिकेन अधिकरणानि न भवन्ति इति दिक् इति दिक् वदति पूर्वोक्त चिन्तनं सम्यक् नास्ति इति. पूर्वोक्तचिन्तनम् एतदस्ति महाकाल अतिरिक्तनित्याः कालस्य परिच्छेदकः न भवन्ति अतः ते कालिकेन अधिकराणि न भवन्ति इति चिन्तनं तद् चिन्तनं सम्यक् नास्ति इति.
इति दिक् नाम इति अलम् इति दिक् इत्युक्ते इति अलम् न इति अलम् इत्युक्ते तावदेव तत्र किमपि अन्यत् वक्तव्यं नास्ति तावदेव इति अलम् पर्याप्तम् इति.
अहं चिन्तयामि अलम् इति न करोतु इति.
न करोतु इत्युक्ते नाम हा नाम तत्र पर्या तावदेव इत्युक्ते एण्ड् आफ् मेटर् इति
पर्याप्तं
इति नाम अस्मिन् विषये चर्चा मास्तु अत्र एव स्थगयामः तावदेव इति. अतः तत्र अतः तत्र इति दिक् इति अलम् अतः तत्र किम् उक्तं तर्हि यत् भवान् यत् उक्तवान् तत् समीचीनमेव नाम महाकाल अतिरिक्तनित्याः तत्र अतिरिक्तनित्याः पदार्थाः के सन्ति तत्र द्रव्यं तत्र किं किं
मनः आत्मा
आकाशः दिक् अस्ति अतः तत्र ते तु तत्र अधिकरणानि न भवितुं तत्र चत्वारि द्रव्याणि अधिकरणानि न भवितुम् अर्हन्ति कालिकसम्बन्धेन.
अस्तु महोदय. अरविन्दो महोदय वाट्साप् मध्ये ते अधिकरणं भवन्ति इति उक्तवान् खलु?
न कालिकसम्बन्धेन न भवितुम् अर्हन्ति महोदय तावदेव तत्र. तत्र अधिकरणम् अन्या रीत्या भवेत् नाम तत्र वयं वक्तुं शक्नुमः अस्तु तत्र गृहम् आकाशे अस्ति इति तादृशवाक्यं भवेत् किन्तु कालिकसम्बन्धेन अधिकरणं न भवितुम् अर्हति. नाम तत्र पद्मालयः आकाशे कालिकसम्बन्धेन अस्ति इति न वक्तुं शक्नुमः. किमर्थमिति प्रथमपदं वदति किमर्थं
कालस्य परिच्छेदकः परिच्छेदकाः न सन्
नाम परिच्छेद योग्यता या अस्ति नाम तत्र पद्मालये योग्यता अस्ति किं कर्तुं योग्यता अस्ति अथवा किं कर्तुं शक्तिः अस्ति पद्मालये पद्मालये महाकालस्य सङ्कोचनं कर्तुं शक्तिः अस्ति योग्यता अस्ति तादृशयोग्यतायाः अभावः नित्यपदार्थेषु खलु नित्यपदार्थः तत्र महाकालस्य सङ्कोचनं न कर्तुं शक्नुवन्ति अतः तत्र योग्यता योग्यत्व अभावात् नित्यपदार्थः महाकालं विहाय अन्यनित्यपदार्थाः कालिकेन अधिकरणानि न भवन्ति इति धिक् नाम अस् तावदेव अतः तत्र महाकालस्य विषये अन्यत् किमपि वक्तव्यं नास्ति अत्र एव सम्पूर्णम् इति समाप्तिः इति
अस्तु महोदय
अतत्र तथाविध तथाविधं नाम यथा जन्येषु परिच्छेदयोग्यत्वम् अस्ति तथाविधपरिच्छेदयोग्यत्वं महाकालं विहाय अन्येषु नित्यपदार्थेषु नास्ति अतः तत्र तेषु ते अधिकरणानि न भवितुम् अर्हन्ति अथवा तानि द्रव्याणि अधिकरणानि न भवन्ति कालिकेन इति अस्तु अस्तु तर्हि तत्र
प्रश्नः तत्र अतिरिक्त किमर्थम् उक्तं महाकाल अतिरिक्तनित्याः
यतोहि महाकाल तु अधिकरणं भवति खलु
आम् अतिरिक्तनित्यः
नाम महाकालः नित्यपदार्थः अस्ति वा अथवा नास्ति वा
अस्ति
अस्ति महाकालः अधिकरणम् अस्ति वा
महाकालः
अधिकरणम् अस्ति वा
आं सर्वेषां नित्यानाम् अस्ति अनित्यानाम्
अपि अस्ति अतः तत्र तद् अधिकरणं भवति खलु महाकालः अधिकरणं भवति हा अस्तु अत्र किम् उक्तमस्ति तत्र महाकाल अतिरिक्तनित्याः इदानीम् आकाशः अतिरिक्तनित्यपदार्थः अस्ति वा महाकाल अतिरिक्तपदार्थः अस्ति वा आकाशः
महाकाल
अतिरिक्तपदार्थः अतिरिक्त इत्युक्ते किम् इति वदतु तर्हि
विहाय वा
हा नाम महाकालः नास्ति महाकालं विहाय नित्यपदार्थाः अथवा नित्यद्रव्यं यद् अस्ति तत्र किं किं द्रव्यमस्ति महाकालं विहाय
नित्यद्रव्यं
अतः तत्र चत्वारि द्रव्याणि अधिकरणानि कालिकसम्बन्धेन अधिकरणानि न भवन्ति इति
अवगतम् अवगतम्
महाकाल तु अधिकरणमस्ति किन्तु अन्यनित्यद्रव्याणि अधिकरणानि न सन्ति अस्तु अस्तु समीचीनम् अस्तु अग्रे तत्र अशोक् महोदय भवानेव तत्र किञ्चित् दिशनिरूपणम् इति आरभ्य किञ्चित् पठतु महोदय
महोदय द्वितीय बिन्दु द्वितीयबिन्दुः अस्ति खलु जन्याः अपि तुल्यक्रियापरिच्छेदकानां निखिलानामेव जन्यानां कालिकेन अधिकरणानि तत्र परस्पर अधिकरणत्वम् इति वार्ता अस्ति वा
परस्पर अधिकरणम् अस्ति इति तत्र वार्ता अस्ति किन्तु अत्र न सूचितं
किमर्थं न सूचितं
नाम तत्र वयं तत्र अवगमनार्थं पश्यामः आमां नाम तत्र अत्र केवलं एतत् सूचितं पद्मालयः अपि शिवालयः एकस्मिन् समये स्तः चेत्
पद्मालयक्रियापरिच्छेदकाः
भवन्ति पद्मालयः अपि तत्र पद्मालये शिवालयः अस्ति इति उक्तम् अत्र यतोहि तत्र पद्मालयः जन्यः इति तदनन्तरं पुनः एषः एव बिन्दुः तस्य पुनः चिन्तनं कृत्वा अस्तु पद्मालयः जन्यपदार्थः शिवालयः अपि जन्यः खलु इति पुनरेकवारम् एतस्य चिन्तनं कुर्मः चेत् अस्तु शिवालयः अपि अधिकरणं भवितुम् अर्हति. अतः तत्र पद्मालयः शिवालये अस्ति इति अपि वयं वक्तुं शक्नुमः कालिकसम्बन्धेन इति भवति. हा किन्तु तत्र साक्षात् तत्र परस्पर अधिकरणानि भवन्ति इति अत्र न उक्तं, तत्र पाठे उक्तम्, अत्र निकषरूपेण न उक्तं तावदेव.
किन्तु तदेव तस्य
अर्थः सः एव अस्ति सत्यं. किन्तु तत्र किम् अस्ति एतत् किमर्थम् एषा रीतिः स्वीकृता इत्युक्ते तृतीयवाक्ये नित्यानां तु सुतराम् इति वक्तुं शक्नोति खलु. यदि परस्परम् इति द्वितीयवाक्ये आसीत् नित्यानाम् इति तत्र तृतीयवाक्ये यदि भवति तत्र परस्परम् इति तस्य प्रभावः
तस्य अन्वयः न भवेत्.
अतः तत्र केवलम् अधिकरणं भवति जन्यः यः कोऽपि पदार्थः सः पदार्थः अधिकरणरूपेण स्वीकर्तुं शक्नुमः कालिकसम्बन्धस्य. समकालीन अन्यजन्यपदार्थः यः कोऽपि भवेत् अपि नित्यपदार्थस्य अपि अधिकरणरूपेण शक्नुमः
इत्युक्ते यत् प्रथमा बिन्दौ उक्तं तदेव किञ्चित् भिन्नरीत्या अग्रे अपि उक्तम् इति भाति.
न भगिनि, प्रथमबिन्दौ चिन्तनम् एतत् त्यजतु, तद् नास्ति इति चिन्तयतु. केवलं महाकालः सर्वेषाम् आधारः,
सर्वाधारत्वं
सत्यम्. अतः तत्र केवलं महाकालस्य एव विषयः तत्र प्रथमबिन्दुः
सत्यं,
महाकालः सर्वेषाम् आधारः. इदानीं द्वितीयबिन्दौ जन्याः नाम उपादयः, ते अपि अधिकरणानि भवन्ति. केषां? तत्र जन्यानां, किन्तु समानकालजन्यानां, समकालीनजन्यानाम् अधिकरणानि भवन्ति. नित्यानामपि तु भवन्ति इति.
नित्यानामपि कालिकेन अधिकरणानि भवन्ति इति
भवन्ति जन्याः इति. अतः तत्र द्वितीयतृतीयबिन्दु उपाधिविषयः खलु. जन्याः अधिकरणानि भवन्ति, अतः तत्र जन्यानाम् अधिकरणत्वम् एव द्वितीयतृतीयबिन्दु विषयः.
नित्यानां तु सुतराम् इति अत्र नित्यपदार्थाः अधिकरणं भवन्ति इति वा अथवा
न तादृश
आपोसिट् अस्ति खलु.
नाम अस्तु, तत्र समीचीनं प्रश्ने समीचीनं भगिनि. नाम अत्र किम् अस्ति, नित्यानाम् इति षष्ठी अस्ति खलु, षष्टिभवचनं, तत्र अन्वयः एतत् कुत्र स्थापनीयम् इत्युक्ते तत्र जन्यानाम् इति स्थाने स्थापनीयम्. किन्तु जन्यानां केवलम् एकमेव पदं यदि जन्यानां त्यजामः, निखिलानयमेव तुल्यक्रियापरिच्छेदकानाम् एतत् सर्वं त्यक्तव्यमस्ति तत्र, यतोहि विशेषणम् अस्ति तत्र जन्यानाम् इति. द्वितीयवाक्ये अतः तत्र जन्याः अपि नित्यानां कालिकेन अधिकरणानि भवन्ति, एतत् सुतराम्.
ओ अस्तु अस्तु, जन्यानामपि
अधिकरणानि भवन्ति जन्याः, किन्तु सर्वेषां जन्यानाम् इति न वक्तुं शक्नुमः, यतोहि तत्र एका क्रिया सहानुभोक्तव्या भवेत् खलु. नाम तत्र यदि तत्र सहस्रवर्षपूर्वम् एकं गृहमासीत्, इदानीं वयं स्मः, तर्हि वयं तत्र तस्मिन् गृहे स्मः इति न वक्तुं शक्नुमः महाकालिकसम्बन्धेन, यतोहि समकालीनौ न स्मः खलु. अतः तत्र केवलं जन्यानाम् इति न वक्तुं शक्नुमः, अतः तत्र एतद् दीर्घ नाम सहानुभोक्तव्याक्रिया यदस्ति तत्सर्वम् उक्त्वा एव तादृशजन्यानामेव अधिकरणानि भवन्ति जन्याः. अपि यदि वयं नित्यानाम् इति स्थापयामः तत्र केवलं जन्याः, नित्यानामपि अधिकरणानि सन्ति इति एव, तावदेव अस्ति तत्र.
जन्याः नित्यानामपि
अधिकरणानि
सन्ति इति अस्तु.
नाम आकाशः पद्मालये कालिकसम्बन्धेन अस्ति यतोहि या कोऽपि क्रिया तत्र पद्मालयेन अनुभविता सा क्रिया आकाशेन अपि अनुभविता खलु यतोहि आकाशात् तस्मिन्नेव समये आसीत् यस्मिन् समये तत्र पद्मालयः अस्ति तस्मिन् समये आकाशः अपि अस्ति अतः समकालीनौ स्तः खलु अतः तत्र समकालीनौ स्तः इत्युक्ते तत्र अधिकरणरूपेण स्वीकर्तुं शक्नुमः अतः तत्र
अनित्याः सर्वदा नित्यानां अधिकरणानि भवन्ति इति
अर्थः इति एव तात्पर्यं तत्र सत्यं भगिनि
समीचीनं
धन्यवादः अत्र तत्र प्रथमबिन्दु महाकालस्य विवरणं
महाकाले नित्यम् अनित्यं सर्वेषामपि अधिकरणं भवति इति महाकालः फस्ट् पायिण्ट् द्वितीयः बिन्दुः तु केवलं अनित्याः कालिकेन अधिकरणानि भवन्ति इति जन्याः अनित्याः अनित्याः जन्याः समग्रजन्याः इति अर्थः तुल्यक्रियापरिच्छेदकः भवतु न भवतु समग्राणां जन्यानां कालिकेन अधिकरणं भवति
न केवलं तत्र समकालीनौ भवति नाम तत्र न्यूनातिन्यूना एका क्रिया भवेत् तयोः मध्ये सहानुभोक्तव्या आसीत् नाम तत्र सहस्रवर्षं पूर्वं तत्र कोऽपि आसीत् वयम् इदानीं स्मः तत्र सम्बन्धः तत्र कालिकसम्बन्धः नास्ति तत्र तदा अधिकरणं न भवितुम् अधिकरणता नास्ति एकक्षणम् अपि अस्ति चेदपि समीचीनं किन्तु एकमपि क्षणं नास्ति तत्र कालसम्बन्धः नास्ति अतः तत्र द्वितीयतृतीयबिन्दौ उपादयः ये सन्ति तेषाम् आधारत्वम् अधिकरणत्वं कदा भवति इति विवरणं चतुर्थबिन्दौ अन्य नाम महाकालं विहाय
अन्यनित्यपदार्थानां परिच्छेदयोग्यः नास्ति इति कारणेन ते अधिकरणानि न भवन्ति इति अर्थः
इति अस्ति इति अस्ति तदेव तात्पर्यम् समीचीनं भगिनि
अस्तु समीचीनं महोदय धन्यवादः महोदय
अस्तु उत्तमं भगिनि नाम इदानीं तत्र स्पष्टता अस्ति इति मन्ये तत्र सर्वेषां कृते अतः तत्र धन्यवादः प्रश्नः यदा भवति तदा एव तत्र उत्तरमपि अस्माकं मनसि तिष्ठति अस्तु धन्यवादः भगिनि अस्तु तर्हि तत्र अग्रे अशोक महोदय
दिशः निरूपणम् इदानीं दिशं निरूपयति प्राची आदि व्यवहारहेतुः दिक् सा च एका दिभ्रि नित्या च इति इह इयं प्राची इयं प्रतीची इत्यादि शब्दप्रयोगान् आदाय तज्जन्यं ज्ञानं च आदाय चिन्त्यम्
अस्तु तावत् अस्तु इदानीं तत्र दिशः निरूपणं नाम
दिक् पदार्थस्य निरूपणं
समीचीनं तर्हि तत्र लक्षणवाक्यं किम् अस्ति
प्राच्यादि जवाहरहेतुर्दिक्
नाम एतादृशवाक्यं वयं पूर्वं दृष्टवन्तः खलु
आं महोदय
व्यवहारहेतुः
कालः
तत्र व्यवहारः नाम किं
यत् शब्दस्य ज्ञानजनकम् अस्ति तद्
समीचीनं ज्ञानजनकशब्दप्रयोगः समीचीनं महोदय ज्ञानजनकशब्दप्रयोगः व्यवहारः अत्र कीदृशज्ञानं भवति अपि शब्दप्रयोगः कः इति द्रष्टव्यम् अस्ति अतः तत्र इयं प्राची इयं प्रतीचि इत्यादि शब्दप्रयोगाः तत्र शब्दप्रयोगः तत्र पूर्वस्मिन् महाकालसन्दर्भे वयं किम् उक्तवन्तः तत्र इदानीं तत्र घटः अतीतः इति यदि वदामः तत्र तादृशशब्दप्रयोगात् किमपि ज्ञानं भवति खलु तस्य शब्दप्रयोगात् तादृशशब्दप्रयोगं व्यर्थं नास्ति खलु प्रयोगः व्यर्थः नास्ति खलु यतोहि कालः अस्ति कालः नास्ति चेत् तादृशशब्दप्रयोगः व्यर्थः भवति तेन ज्ञानं न उत्पद्यते खलु
आं महोदय
हा किन्तु अत्रापि तत्र प्राची तत्र प्रतीचि इति जानाति वा महोदय तत्र प्राची इत्युक्ते किं
पूर्व यत् दिशि
दिशि सत्यं महोदय तावदेव नाम प्राची इत्युक्ते तत्र पूर्वदिक् प्रतीचि इत्युक्ते तत्र पश्चिम इति अतः तत्र किमपि गृहम् अस्ति एतद् गृहम् अन्यस्य गृहस्य कृते एतद् गृहं प्राच्याम् अस्ति टु दि ईस्ट् टु द वेस्ट् इति यद् वदामः तत्र प्राची इत्युक्ते पूर्वं प्रतीचि इत्युक्ते पश्चिमम् उदीचि इत्युक्ते उत्तरम् अपाचि इत्युक्ते दक्षिणम् तत्र प्राची प्रतीचि उदीचि अपाचि इति अस्ति केवलं तत्र पूर्वं पश्चिमम् उत्तरं दक्षिणम् इति तस्य तादृशव्यवहारः अस्ति अतः तत्र एतत् पठतु महोदय इदानीं तत्र इत्यादि शब्दप्रयोगान्
शब्दप्रयोगान् आदाय तत् जन्यं ज्ञानं च आदाय चिन्त्यं यदि कश्चित् वदति इयं प्राची इयं प्रतीचि इति कश्चित् ज्ञानं जन्यते तद् ज्ञानविषयात् चिन्तनं
नाम तत्र आदाय एतद् ज्ञानं च आदाय चिन्त्यं नाम तत्र एतद् ज्ञानं भवति अतः तत्र दिक् इति किमपि भवेत् खलु तर्हि यदि दिक् इति पदार्थः नास्ति चेत् एतादृशव्यवहारः व्यर्थः भवति खलु अतः तत्र दिक् इति कोऽपि पदार्थः किमपि भवेत् अतः तत्र एतादृशव्यवहारहेतुः व्यवहारस्य कारणं हेतुः नाम कारणं दिक् अस्ति यदि दिक् नास्ति एतादृशव्यवहारः न भवति एतादृशशब्दप्रयोगः न भवति अतः तत्र इयं प्राची इयं प्रतीचि इति शब्दप्रयोगान् आदाय तज्जन्यं तज्जन्यम् इत्युक्ते तद् इत्युक्ते किं तत्र
शब्दात् ज्ञानं
शब्दप्रयोगः शब्दप्रयोगः समीचीनं हा तत्र शब्दप्रयोगात् जन्यं यद् ज्ञानम् अस्ति तम् आदाय चिन्त्यं नाम तद् स्वीकृत्य चिन्तयतु तत्र दिक् इति भवेत् नो चेत् एतादृशज्ञानं न भवति समीचीनं महोदय तथैव अस्ति हा अस्तु इदानीं तत्र सा च एका विद्वि नित्या च इति एतत् सर्वम् अग्रे भवेत् किन्तु तत्र अग्रे सरामः तत्र प्राची इत्यादि व्यवहारहेतुः दिक् इति स्वीकृत्य अग्रे सरामः धन्यवादः महोदय इदानीम् अग्रे तत्र विमला भगिनी अग्रे किञ्चित् पठति वा तत्र तादृश
आं महोदय तादृशप्रयोगः प्रयोगः व्यवहारः न दिशं विना सम्भवति इति तत्कारणत्वं दिशि स्थिरम् इत्युक्ते यदि दिक् इति नास्ति तर्हि वयम् एतादृशव्यवहारं कर्तुं न शक्नुमः
न सम्भवति अतः तत्र
सम्भवति
तद् व्यवहारं तत्र व्यवहारं
शब्दप्रयोगं कर्तुं न शक्नुमः
अपि तत्र व्यवहारहेतु नाम एतादृशव्यवहारं प्रति कारणं कुत्र अस्ति
दिशि अस्ति
नाम दि केव कारणम् अस्ति, दिशि कारणत्वम् अस्ति. तत् कारणत्वम् इत्युक्ते तत्र तत् इत्युक्ते किम्?
विशेषमस्ति तत् कारणत्वं विशेषं तत् शब्दप्रयोगः
अथवा व्यवहारः तादृशप्रयोगः व्यवहारः तस्य व्यवहारस्य अथवा शब्दप्रयोगस्य कारणत्वं दिशि अस्ति नाम दिश् दिक् एव कारणम् अस्ति. अत्र तत्र प्राच्यादिव्यवहारहेतुः दिक् इति तस्य विवरणम् एतावत् दत्तम् अस्तु. इदानीम् अग्रे हा तत्र केवलं किञ्चित् दृष्टवन्तः पूर्वं तत्र
पठामि. इह अपि एकैव दिक् अनादिः अनन्ता न इह तत्र प्राची प्रतीचि इत्यादिव्यवहारयोग्या भवति इति कश्चन परिच्छेदकम् उपाधिम् आदाय एव ते व्यवहाराः सम्पाद्याः. अतः उदयगिरिं स्थिरीकृत्य तत्र प्राची अस्ताचलम् आदाय प्रतीचि इति एवं व्यवहाराः प्रसिद्धाः. अत्र दिक् अस्मिन् चित्रे एतत् सर्वं most of it
bagini tatra nama tatra yatha tatra mahakalasya
vishaye
purvam asit tatra asmin parichede anyah vishaya asti atah tatra kevalam yat chitram asti kinchit pashyamah tatra nama tatra
udayagiri kachya prachyam asti
udayagiri प्राच्याम् अस्ति इति चिन्तनम् इति ज्ञानम् उदयगिरिः प्राच्याम् अस्ति इति समीचीनं भगिनि. हा तर्हि तत्र शब्दप्रयोगः आसीत् उदयगिरिः प्राच्याम्
अस्ति
तेन ज्ञानं
भवति.
अतः तत्र अपि तत्र ज्ञाने ज्ञानस्य आकारः कीदृशः इत्युक्ते ज्ञाने
जन्यता
हा जन्यता अस्ति यतोहि
शब्दप्रयोगेन
ज्ञानम् उत्पादितम् अस्ति. समीचीनम्. अतः तत्र शब्दप्रयोगे किमस्ति?
जनकता अस्ति.
जनकता अस्ति. ज्ञाने
जन्यता अस्ति.
अस्ति अपि अत्र सर्वत्र तत्र विवरणं न दत्तं नाम तत्र किमर्थं तत्र तत्र केवलं तत्र सम्बन्धः किमपि भवेत् इति तत्र तादृशं सूचितमस्ति किन्तु साक्षात् कीदृशसम्बन्धः इति न उक्तम् अथवा अधिकरणं वा किमपि न उक्तं. तर्हि अत्र कः सम्बन्धः जन्यता जनकता तयोः मध्ये?
निरूप्यनिरूपकभावः
समीचीनम्. हा अपि जन्यता यः आशयः ज्ञानं खलु.
अस्तु
हा अस्तु तर्हि अतः तत्र समीचीनं भगिनि. अतः तत्र अस्तु तत्र ज्ञानम् इदानीं तत्र एतत् कुर्मः तत्र एतावत् समीचीनं भगिनि. हा इदानीम् अग्रे अन्य कोऽपि वदेत् हा उत्तमं भगिनि. हा अस्तु तर्हि तत्र अग्रे तत्र प्रेमलता भगिनि तत्र उदयगिरिः प्राच्याम् अस्ति इति तत्र अथवा तत्र प्राची इति उदयगिरिः प्राची इति भवति चेत् तत्र ज्ञानस्य आकारः कीदृशः अस्ति तत्र? यथा चित्रेण सूचितं नाम
प्राची इति प्रकारता इति सूचितं चित्रेण.
हा नाम यथा तत्र वयं वदामः तत्र गन्धवती पृथिवी इति यदि यदि अस्ति चेत् तत्र गन्धवती इति तत्र किं भवति? तत्र गन्धः प्रकारः खलु, विशेषणमेव तत्र प्रकारः खलु. विशेष्यं भवति, विशेष्यः अस्ति. अतः तत्र विशेष्यता उदयगिरौ अस्ति.
प्रकारता अस्ति उदयगिरौ. उदयगिरिनिष्ठा प्राचीत्व
उदयगिरि मध्ये
प्रकारता अस्ति.
अस्तु तत्र अस्तु अस्तु तत्र प्राचित्वं तस्मिन् प्रकारता अस्ति अपि प्रकारता अपि विशेष्यता तयोः मध्ये कीदृशः सम्बन्धः अथवा भावः प्रकारता विषयता तयोः मध्ये तत्र निरूप्यनिरूपकभावः नाम विशेषता अस्ति विशेषता अस्ति चेत् प्रकारता भवेत् इति चिन्तनं प्रकारता अस्ति चेत् विशेषता अपि भवेत् इति चिन्तनम् अस्ति खलु अतः तत्र निरूप्यनिरूपकभावः अस्ति तयोः मध्ये उदयगिरिविशेष्यम् अस्ति प्राचित्वं तत्र प्रकारः अस्ति तत्र
ज्ञाने भवति
हा नाम तत्र प्राचित्वं निष्ठप्रकारतानिरूपकं ज्ञानं उदयगिरिनिष्ठविशेषतानिरूपकं
ज्ञानम्
इति अस्ति अतः तत्र एतस्य विवरणं कृतं यत्र तत्र अतीतत्वम् इति आसीत् पूर्वं खलु घटः अतीतः इति यदासीत् अत्र घटः आसीत् घटः अतीतः इति उदाहरणे अत्र घटः अत्र किम् आसीत् प्रकारता अस्ति तद् विहाय अन्यत् सर्वं समानमस्ति केवलं दिक् इति स्थाने किमस्ति किम् आसीत् पूर्वं कालः तत्र अतीतादिव्यवहारहेतुः इति घटः अतीतः इति उदाहरणे अत्र घटः आसीत् पूर्वं अत्र अतीतत्वम् आसीत् अत्र कालः आसीत् तावदेव सर्वं समानं यतोहि लक्षणवाक्यं समानमस्ति तत्र प्राच्यादिव्यवहारहेतुः
दिक्
अत्र अतीतादिव्यवहारहेतुः कालः
कालः इति
तत्र समानमेव नाम तत्र एतादृशमानचित्रस्य पठनं वयं कर्तुं शक्नुमः कृतवन्तः अपि पूर्वम् अत्र समीचीनं हा अस्तु तर्हि अग्रे तत्र अन्य कोऽपि तर्हि तत्र धन्यवादः भगिनि हा अस्तु अग्रे तत्र हा धनश्री भगिनी अत्र दिक् इति आरभ्य अथवा तत्र ज्ञानमिति आरभ्य दिक् पर्यन्तं किञ्चित् कथं गच्छामः इति विवृणोतु भगिनि तर्हि
ज्ञाने जन्यता अस्ति जन्यता निरूपितजनकता शब्दप्रयोगे अस्ति शब्दप्रयोगे इतोपि एका जन्यता अस्ति यस्या निरूपितजनकता दिशि अस्ति
अपि तत्र वयं कालस्य निरूपणसमये तत्र केवलं जनकता जन्यता इति न उक्तवन्तः
कार्यता कारणता अपि
अपि अपि तत्र अवच्छेदकधर्मः अपि तत्र स्थापितः आसीत् खलु जनकता तत्र केन कया परिच्छिन्ना अथवा केन परिच्छिन्ना अस्ति जनकता शब्दप्रयोगे या जनकता अस्ति या जनकता अस्ति
शब्दप्रयोगे या जनकता अस्ति
सा शब्दप्रयोग तत्र केन अवच्छिन्ना अस्ति शब्दप्रयोगत्वात्
अवच्छिन्ना
अस्ति समीचीनं जन्यता अपि शब्दप्रयोगत्वा अवच्छिन्ना अस्ति अपि तत्र धिक् इति तस्मिन् दिशि जनकता अस्ति तदपि तत्र तस्य भावः तत्र धर्मः यदस्ति तत्र समीचीनपदं न स्मरामि तत्र धिक् किं भवति तत्र दिष्ट्वम् इति वा किं तत्र कोऽपि जानाति वा तत्र किं भवति तत्र प्रायशः प्रातिपदिकेन एव भवेत् खलु तर्हि इति
तस्य
तत्र तेन परिचिन्ना जनकता अस्ति अपि ज्ञानत्वम् इति परिचिन्ना ज्ञानत्वेन परिचिन्ना जन्यता इति अस्ति. एतत् सर्वं वयं पूर्वं स्थापितवन्तः कालस्य सन्दर्भे. अतः तत्र पुनः तत्र ज्ञानं कीदृशमस्ति, तत्र एतादृशविवरणं ददातु, नाम प्राचित्वं निष्ठ इति तादृशं ज्ञानं कीदृशं, तत्र विशेषता अपि भवेत् प्रखरता अपि भवेत्.
उदयगिर्यां प्राचित्वमस्ति, प्राचित्वनिरूपित या प्रकारता अस्ति
न
तस्य निरूपकं
प्राचित्वं निरूपितप्रकारता
न प्राचित्वे प्रकारता अस्ति, प्रकारतायाः निरूपकं ज्ञानमस्ति. पुनः उदयगिर्यां या विशेष्यता अस्ति, विशेष्यतानिरूपकमपि ज्ञानमस्ति.
हा नाम उदयगिरिनिष्ठविशेषतानिरूपकं निरूपकं ज्ञानं, प्राचित्वनिष्ठप्रकारतानिरूपकं ज्ञानं, तादृशज्ञाननिष्ठजन्यता निरूपितजनकता आश्रयः शब्दप्रयोगनिष्ठजन्यता निरूपितजनकताश्रयः अथवा जनका जनकत्वं दिशलक्षणम् तस्य आश्रयत्वं जनकतायाः आश्रयत्वं दिशः लक्षणम् इति तादृशविवरणं भवति इति. अतः तत्र समीचीनं भगिनि. अस्तु अग्रे तत्र नरसिंहमहोदय, तर्हि अग्रे तत्र अधोभागे तत्र यदस्ति एकवारं पठतु महोदय. इहापि
इह अपि काललक्षण दर्शितरीत्या उदयगिरित्वा अवच्छिन्न विशेष्यतानिरूपित प्राचीत्व अवच्छिन्न प्रकारतानिरूपक ज्ञाननिष्ठ ज्ञानत्व अवच्छिन्न कार्यतानिरूपित शब्दप्रयोगत्व अवच्छिन्न कारणताश्रय शब्दप्रयोगनिष्ठ शब्दप्रयोगत्व अवच्छिन्न कार्यतानिरूपित कारणता आश्रयत्वं दिशा लक्षणमिति
भवति. केवलं यत् यत्र अस्ति तदेव अस्ति खलु महोदय, तर्हि मानचित्रं यदस्ति तदेव अधोभागे अपि क्षम्यतां. तत्र समीचीनं नासीत्. अस्तु अस्तु महोदय. अतः तत्र यद् वयं पूर्वं पठितवन्तः तदेव अस्ति खलु, काललक्षणे यादृ यथा आसीत् तथैव अत्र अपि अस्ति खलु महोदय. नाम उदयगिरि इति आरभ्य तत्र घटः घटत्वावच्छिन्नविशेष्यता इति आसीत्, अत्र उदयगिरित्वावच्छिन्नविशेषता प्राचित्वत्वावच्छिन्न प्रकारता इति एव अस्ति खलु. अतः तत्र तथैव अत्र अतः तत्र एतादृशं चित्रम् अपि तत्र विवरणं वयं सर्वे कर्तुं शक्नुमः. अतः शनैः शनैः तत्र स्थापयतु एतादृशमानचित्रं गृहे गृहपाठरूपेण स्थापयतु. किं किम् अस्ति तत्र अवच्छेदकधर्मः अपि स्थापयतु, येन तत्र एतस्य वाक्यस्य सम्यक् अवगमनं भवेत्. तत्र अतः तत्र अस्मिन् वाक्ये किमपि नास्ति, वयं जानीमः तत्र किम् अस्ति इति, नूतनं किमपि नास्ति. अतः तत्र अग्रे तत्र अस्तु महोदय, तत्र भवान् एव इदानीं तत्र पठतु अत्र इहापि इति.
इह तत्र प्राचि प्रतीचि इत्यादि व्यवहारयोग्यः भवति. कञ्चन परिच्छेदकम् अधेय ते व्यवहारः इत्युक्ते प्राची हस्ताचलम् आदाय प्रतीचि इत्येव
व्यवहारः
पठतु महोदय
एकवारं न अस्तु किञ्चित् विवृणोतु महोदय.
उपरि वयं दृष्टवन्तः दिशानिरूपणम् अत्र तत्र यथा काले वयं दृष्टवन्तः अत्रापि एकैव दिक् अनादिः अनन्तः न तत्र प्राची प्रतीचि व्यवहारयोग्य व्यवहारयोग्य इत्युक्ते ज्ञाननिष्ठ ज्ञानजनकशब्दप्रयोग वयं कर्तुं शक्नुमः.
महोदय एतावत् एतावत् वदतु महोदय तत्र इहापि इति
अनन्ताः न इह दिक् इति तस्य आदि अपि नास्ति अनन्तः इति नास्ति विषयः.
न न महोदय न न अस्तु अस्तु अन्य कोऽपि वदेत् अस्तु धन्यवादः महोदय. हा अस्तु तर्हि तत्र अन्य कोऽपि वदेत् तर्हि तत्र सीतालक्ष्मी भगिनी वदति वा अग्रे एकवारम् अस्य वाक्यस्य अर्थः कः इति वदति वा किञ्चित्
प्रयत्नं करोमि.
श्रूयते श्रूयते भगिनि. हा
इहापि एकैव दिक् अनादिः अनन्ताः न इह तत्र प्राची इह तत्र प्राची प्रतीचि इति आदिव्यवहारयोग्या भवति इति.
हा इति तावत् तावत्
यद् दिक् इति अस्ति तद् अनादिः अनन्ता इति अस्ति. अनादिः अनन्ता इति स्त्रीलिङ्गपदम् अतः एव अनन्ता इति दिक्
समीचीनं. हा दिक् इति स्त्रीलिङ्गपदम् अतः एव तत्र
अनन्ता अनादिः अनन्ता. न इह तत्र प्राची प्रतीचि इति आदिव्यवहारयोग्या भवति इति. आदिः अनन्ता अस्ति इति कारणेन इह तत्र प्राची प्रतीचि इति तस्य व्यवहारयोग्यता न भवति इति वा महोदय?
हा सत्यं. कस्य विवरणमस्ति तत्र योग्या?
योग्या इत्युक्ते दिक् दिक् इति यदस्ति तस्य
योग्या नास्ति नाम समीचीनं. यतः महाकालः अनादि अनन्तः अस्ति इति कृत्वा सः तत्र अस्मिन् समये अथवा घटः अतीतः इति तादृशव्यवहारयोग्यः तत्र नास्ति. नाम तत्र व्यवहारे व्यवहारयोग्यता तत्र उपाधिना सम्पादितः खलु? सम्पादिता योग्यता उपाधिना सम्पादिता. अतः अत्रापि किं करणीयं तत्र दिक् इति योग्या इत्यादि व्यवहारयोग्या न भवति इति कृत्वा किं कृतम् अग्रे?
कञ्चन परिच्छेदकम् उपाधिम् आदाय एव ते व्यवहाराः सम्पाद्याः. यथा कालस्य विषये उपाधिं स्वीकृत्य पूर्वं परम् इति इदानीं तदानीम् इति उक्तवन्तः तादृशमेव अत्र अपि उपाधिं स्वीकृत्य एव तस्य व्यवहारस्य व्यवहारं सम्पादयितुं शक्नुमः इति.
हा व्यवहारस्य सम्पादनं भवति व्यवहारः व्यवहारं तस्य सम्पादनं भवति. हा समीचीनं भगिनि. हा अतः तत्र उपाधिं नाम येन तत्र परिच्छेदकम् उपाधिं नाम तेन सीमा सङ्कुचितं रूपं भवति. नो चेत् तत्र अनादि अनन्त भवति दीक्षिति. समीचीनं भगिनि. हा धन्यवादः. हा अस्तु अत्र समीचीनं भगिनि. अस्तु हा वदतु.
क्षम्यतां महोदय, अत्र न इति अस्ति खलु, केन सह अन्वयः भवेत्?
तत्र न इत्युक्ते अत्र भवति भगिनि, न भवति नाम दिक्किति अनादिः अस्ति सा दिक् स्त्रीलिङ्गपदं खलु, अतः तत्र दिक् इति अनादिः अस्ति, अनन्तः अपि अस्ति सा.
किमर्थं
अतः सा या अस्ति सा न इह तत्र प्रतीचि इत्यादि व्यवहारयोग्या अस्ति सा.
अस्तु अस्तु अस्तु. यदि न पूर्वमेव प्रयुज्य चेत् अर्थः एव भेदः भवति.
सत्यम्. अतः तत्र न इति तस्य अन्वयः अत्र नास्ति, तस्य अन्वयः न भवति, योग्या न भवति, कीदृशव्यवहारयोग्या न भवति, कीदृश व्यवहार इह तत्र प्राति प्रतीति इत्यादि व्यवहारयोग्या न भवति इति कृत्वा कञ्चन उपाधिम् उपाधिं कञ्चन उपाधिम् उपाधिम्
आदाय एव व्यवहारः क्रियते.
हा
प्राची प्रतिची इति
उपाधिं परिच्छेदकम् उपाधिम् आधाय एव एते व्यवहाराः सम्पादनीयाः. समीचीनं भगिनि?
समीचीनं महोदय, धन्यवादः.
सम्पादनीयाः, नो चेत् तत्र न कर्तुं शक्नुमः. अस्तु, तत्र के न पठितवान् अथवा न पठितवती तत्र? जयलक्ष्मी भगिनी, भवती न पठितवती खलु? अपि पुष्पा भगिनी अपि न पठितवती. अस्तु, तर्हि भवती तत्र अग्रिमवाक्यं पठतु भगिनी, जयलक्ष्मी भगिनी. तदनन्तरम्
अतः उदयगिरिं स्थिरीकृत्य तत्र प्राची अस्ताचलमादाय प्रतीची इत्येवं व्यवहाराः प्रसिद्धाः. उदयगिरिं स्थिरीकृत्य, उदयगिरिम् इति पर्वतः आधारीकृत्य प्राची, पुनः अस्ताचलम् आदाय प्रतीची इति व्यवहारः प्रसिद्धाः सन्ति. तेन ज्ञायते यत् यतोहि दिक् इति अनन्ताः अनादिः च, तथापि दिशः उपाधित्वेन परिच्छेदकरूपेण व्यवहाराः भवन्ति इति एतेन ज्ञायते इति अर्थः.
एतेन ज्ञायते, अत्र व्यवहारे तत्र केवलं तत्र यतः महाकालः एकः एव अस्ति, अनन्तः अस्ति चेत् तस्य व्यवहारः योग्यता नास्ति. तथैव अत्र दिशः योग्यता अपि नास्ति, व्यवहारयोग्यता नास्ति, उपाधित्वेन एव तत्र योग्यता सम्पादनीया इति. अस्तु, समीचीनं भगिनि. अस्तु, तत्र अग्रे तत्र पुष्पा भगिनी अग्रे पठति.
आचार्य, अत्र उदयगिरि तथा अस्ताचलम् इति पर्वतस्य विषये कोऽपि ज्ञानम् अस्ति वा?
तव ज्ञानम् उदाहरणम् इति चिन्तयामि.
भारतदेशे स्थितः केवलं
भवेत्, किन्तु अत्र तस्य महत्त्वं नास्ति, केवलम् उदाहरणं तावदेव. यथा तत्र पद्मालयः शिवालयः आसीत् तावदेव तत्र. अस्तु, अग्रे पुष्पा भगिनी अग्रे.
अतः उदयगिरिं तद् पठामि वा?
इह उदाहरणं पश्यामः.
प्रतीचि इत्येव व्यवहारः प्रसिद्धः. इह उदाहरणं पश्यामि. शिवालय आदाय चिन्त्यते चेत् पद्मालयः तस्य उदीच्यां वर्तते. पद्मालयः इति सा तस्य उदीची भवति.
परन्तु
पद्मालयः सा कथम् आगच्छति महोदय? पद्मालयः
चित्रं पश्यतु भगिनी, चित्रं पश्यतु.
चित्रम् अवगतम्. अत्र पद्मालयः इति वदनेन सा कथम् आगच्छति?
सा न प्रथम इति नास्ति. शिवालयम् आधाय चिन्त्यते चेत् इति भवती पठितवती खलु?
तदवगतम्.
वदतु किम् अवगतम् इति.
शृणोतु, एतत् पद्मालयः सा कथम् आगच्छति? पद्मालयः लिङ्गः.
मया न श्रुतं भगिनी, किञ्चित् उच्चैः वदतु भगिनि.
सा इति वदनेन तत्तु स्त्रीलिङ्गः आगच्छति. सम्यक् वा? पद्मालयः इति वदनेन तत्तु पुल्लिङ्गः आगच्छति.
नाम तत्र शिवालयस्य दिशि, तत्र शिवालयस्य दिक्
उत्तरा.
नाम तत्र कस्मिन् दिशि, कस्यां दिशि अस्ति इति वदामः खलु. तत्र पद्मालयस्य
सा दिक् इति
पद्मालयस्य
अत्र सा इति वदनेन पद्मालयस्य
सत्यं भगिनि, किन्तु तत्र पद्मालयस्य विषयः अस्ति, किन्तु पद्मालयस्य कः विषयः? दिक् इति विषयः. दिक् इति विषयः तत्र स्त्रीलिङ्गपदं.
दिक् इति अद् स्त्रीलिङ्ग वा?
आमामामाम् आम्
अस्तु.
अस्तु तर्हि तत्र अतः तत्र एतावत् यत् पठितवती भगिनि 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 एतावत् पठितवती तस्य विवरणं करोतु भगिनि, तर्हि तत्र किम् अस्ति?
अस्तु अस्तु. पद्मालयः शिवालयम् आदाय वयं चिन्त्यते चेत् पद्मालयः शिवालयस्य विधिज्ञां वर्तते.
हा समीचीनं, यतोहि तत्र पद्मालयः शिवालयं शिवालयस्य कृते तत्र उत्तर
भवति
इति उदीचि दिशि उदीच्यां दिशि अस्ति. उदीच्यां दिशि अस्ति, समीचीनं भगिनि. हा तथैव अस्ति, समीचीनं भगिनि. अस्तु धन्यवादः. अस्तु तत्र मृणालिनी भगिनी तत्र अग्रे पठति वा?
परन्तु शारदालयम् आदाय चिन्तने तु पद्मालयः दक्षिणदिशि वर्तते इति, सा तस्य दक्षिणा भवेत्. अतः एक एव पद्मालयः दक्षिणाम् अपि भवति उत्तरा अपि भवति.
हा नाम पद्मालयस्य दिशि दिशि पद्मालयस्य दिक् दक्षिणापि भवति उत्तरापि भवति. तत्र किम् अथवा कम् आदाय विवरणं भवति इति तत्र सन्दर्भस्य अनुसारेण तत्र पद्मालयः तत्र दक्षिणदिशि अपि भवेत् उत्तरदिशि अपि भवेत् खलु. अतः तत्र केवलम् एकमेव केवलं पद्मालयः इति एव वदामश्चेत् तत्र का इति न वक्तुं शक्नुमः खलु. हा अतः तत्र अन्यत् किमपि भवेत् नाम यत्र पदार्थद्वयमस्ति तत्रैव तत्र दिशः विवरणं कर्तुं शक्नुमः, केवलम् एकस्य आधारेण न कर्तुं शक्नुमः. एकस्य आधारेण अन्यस्य दिक् का अस्ति इति वक्तुं शक्नुमः खलु. इति एव अस्ति. अस्तु तत्र एकवारं भवती अपि तत्र अन्तिम तत्र लक्षणवाक्यम् एतत् पठितम् एकवारं पठतु भगिनि.
इहापि काललक्षणदर्शितविद्या उदयगिरित्वावच्छिन्ना विशेष्यतानिरूपित प्राचित्वत्वावच्छिन्ना परा प्रकारतानिरूपक ज्ञाननिष्ठज्ञानत्वावच्छिन्ना कार्यतानिरूपित शब्दप्रयोगत्वावच्छिन्ना कारणताश्रय शब्दप्रयोगेन निष्ठ शब्दप्रयोगत्वावच्छिन्न कार्यतानिरूपित कारणताश्रयत्वं दिशः लक्षणम् इति. इदानीं केवलं पठितवती
तत्र अस्ति तत्र उदयगिरि निष्ठविशेष्यता ज्ञानं, सा विशेष्यता उदयगिरित्वावचिन्ना अस्ति, प्राचित्वं प्राचित्वनिष्ठप्रकारतानिरूपकं ज्ञानं, सा प्रकारता प्राचित्वावचिन्ना अस्ति, अपि ज्ञाननिष्ठजन्यता निरूपितजनकता शब्दप्रयोगे अस्ति, एषा जन्यता ज्ञानत्वावचिन्ना अस्ति, एषा जनकता शब्दप्रयोगत्वावचिन्ना अस्ति, एषा जन्यता अपि पुनः शब्दप्रयोगत्वावचिन्ना अस्ति. अतः तत्र उपरि गन्तव्यम् अधो गन्तव्यम् उपरि गन्तव्यम् एतावत् गन्तव्यं खलु. तत्र तत्र मार्गः एषः एव मार्गः तत्र दर्शितमस्ति. आश्रयत्वं नाम तादृशजनकता या जनकता दिशि अस्ति तादृश जनकताया आश्रयः दिक् भवति, तादृश आश्रयत्वम् एव दिशः लक्षणं नाम यत्र एतादृशजनक एतादृशी जनकता अस्ति तत्र यत्र अस्ति तत्र सः पदार्थः तत्र आश्रयः का अस्ति आश्रयः दिक् एव अस्ति अन्यत्र कुत्रापि एतादृशी जनकता नास्ति यतोहि लक्षणं नाम लक्षणं केवलं लक्ष्ये भवेत् सर्वत्र भवेत् अन्य विजातीयेषु न भवेत् खलु एतदेव लक्षणस्य लक्षणं खलु अतः तत्र तदेव दत्तमस्ति नाम दिशः लक्षणम् एतादृशकारणतायाः आश्रयत्वम् इति तावत् कारणता नाम जनकतायाः आश्रयत्वं जनकता इति अत्र दत्तमस्ति तत्र कारणता इति दत्तमस्ति तावदेव अस्तु समीचीनं तत्र अतः तत्र द्विषः निरूपणमपि वयं कृतवन्तः अग्रिमे सप्ताहे इदानीं तत्र आत्मा यः अस्ति तस्य लक्षणं पठामः अस्तु तर्हि समयोऽपि जातः विरमाम तर्हि नमस्कारः धन्यवादः अग्रिमवर्गे विरामः।